क्रमेण सर्गे परिवर्धमाने कदापि दिव्यासनकादयस्ते भवद्विलोकाय विकुण्ठलोकम् प्रपेदिरे मारुतमन्दिरेश मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापी मणिमन्दिरैश्च अनोपमम् तम् भवतो निकेतम् मुनीश्वर प्रापुरतीतकक्ष्याः भवद्दिदृक्षून् भवनम् विविक्षून् द्वास्त्वौ जयस्थान् विजयोऽप्यरुन्धाम् तेषाञ्च चित्ते पदमापकोपः सर्वम् भवत्प्रेरणयैव भूमन् वैकुण्ठलोकानुजितप्रचेष्टौ कष्टौ युवाम् दैत्यगतिम् भजेतम् इति प्रशक्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष खगेश्वराम् सार्पितचारुबाहूरानन्दयम् स्थानपि राममूर्त्या प्रसाद्य गीर्भिस्तुवतो मुनीन्द्रान् अनन्यनाथावदपार्षदौ तौ संरम्भयोगेन भवेस्त्रिभिर्माम् उपेतमित्यात्तकृपम् न्यगादीः त्वदीयभृत्यावदकाश्यपातौ सुरारिवीरा उदिदौ दिदौ द्वौ सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः उभौ भवन्नाथमशेषलोकम् रुषान्यरुन्धाम् निजवासनान्धौ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी भवत्प्रियाम्क्ष्माम् सलिले निमज्य चचारगर्वाद्विनदन् गदावान् ततो जलेशात् सदृशम् भवन्तम् निशम्य बभ्रामगवेशयस्त्वाम् भक्तैकदृश्यः स कृपानिधे त्वम् निरुन्धि रोगान् मरुदालयेश श्रीहरये नम गोपिका जीवनस्मरणम् गोविन्दा गो